तृतीय स्कंध
अथवा चतुर्विंशोध्याय श्री कपिल देव जी का जन्म मैत्री हुआ छ निर्वेदवादिनी एवं मनोर्दुहितर मुनि दयालु शालिनी माह शुक्लाभिव्याहृतम स्मरण ऋषि उवाच माँ खिदो राजपुत्री थम आत्मानम प्रत्यनिंदिते भगवान स्त्रेक्षरो गर्भम अधुरात संप्रपत्स्यते धृतव्रताशि भद्रम ते दमेन नियमेन च तपो द्रविड़दान च श्रद्धया च स्वरम भज सत्वयाराधित शुक्लो वितन्वन मामकम यशः छेता ते हृदय ग्रंथि मोदर्जो ब्रह्म भावनः उवाच देवहूत्यपि संदेशं गौरवेण प्रजापते सम्यक् श्रद्धाय पुरुषं कुटस्थम् अभजत् गुरुम् तस्यां बहुतथे काले भगवान् मधुसूदनः कार्दमं बृजमापन्नो यज्ञाग्निरिव दारुणी अवादयंस्तदव्यम्नि बाधित्राणि घना घना गायन्ति तं गन्धर्वा नृत्यन्त अप्सरसमुदात् पेतु सुमनसो दिव्या खेचरैरपवर्जितः प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च तत् कर्दमाश्रमपदं सरस्वत्या परिसृतं स्वयंभूस्साकं ऋषिभिर्मरीच्यादिभिरव्ययात् भगवन्तं परं ब्रह्म सत्त्वेन अंशेन शत्रुहन् तत् संख्यान विज्ञप्ते जातं विद्वान् अजः स्वरात् स्वभाजेन विशुद्धेन चेतसा तच्चिकीर्षितं प्रहृष्य माणेरश्रुभिः कर्दमं चेदमभ्यधात् ब्रह्मवाच त्वया मे क्षितिस्तात कल्पिता निर्विलीकता जन्मे संजगृहेर्वाक्यं भवान् मानद मानयन् एतावत्तेव शुश्रूषा कार्य पितरि पुत्रकै वाढं मित्यनुमन्यत गौरवेण गुरुर्वचः इमा दुहितरः सभ्य तव वत्सु मध्यमः सर्गमेतं प्रभावेशे बृहयिष्यन्त्यनेकधा अतस्त्वां ऋषिमुखेभ्यो यथाशीलं यथारुचि आत्मजा परिदेहि यद्य विस्तृणीः जसो भुवि वेदाहमाद्यं पुरुषम् अवतीर्णं सोमाया भूतानां सेवधीं देहं बिभ्राणं कपिलं मुने ज्ञान विज्ञान योगेन कर्मणामुद्धरं जटः हिरण्यकेश पद्माक्ष पद्ममुद्रा पदाम्बुजः एष मानविते गर्भं प्रविष्टः कैटभार्दनः अविद्या संशय ग्रन्थिं छित्त्वा गां विचरिष्यति अयं सिद्धगणाधीशः सांख्याचार्येषु सम्मतः लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः मैत्रेय उवाच तावाश्वास जगत्स्रष्टा कुमारः सह नारदः हंसो हंसेन जानेन त्रिधाम परमं ययौ गते शतधृतौ क्षत कर्दमस्तेन चोदितः जथोदितं सुदुहित्रिः प्रादद्विसृजन्ततः मरीचये कलां प्रादद् अंशुय्यामथात्रे श्रद्धामङ्गीरसे यशत् पुलस्त्याय हविर्भुवां पुलहाय गतिं युक्तां कर्तव्ये च क्रियां सतीम् ख्यातिं च भृगवेय छद्वसिष्ठायाप्यरुन्धतिम् अथर्वणे ददाच्छान्तिं जया यज्ञोऽपि तन्यते विप्रर्षभान् कृतोद्वाहन् सदारान् समलालयत् ततस्तऋषिहर्षत्वकृद्वारा निमन्त्रितम् प्रातिष्ठनन्दिमापन्न स्वं स्वमाश्रममण्डलम् सत्सावतीर्णम् त्रिजुगम् आज्ञाय विविधर्षभम् विविक्त उपसङ्गम्य प्रणम्य समभाषत अहो पापच्य मानानां निरेश्वैरमङ्गले कालेन भूयसानूनं प्रसीदन्ति ह देवता बहुजन्मपक्वेन सम्यग्योगसमाधिना द्रष्टुं जतन्ते जत शून्यागारेषु यत्पदम् स एव भगवानद्य हेलनं न गणय्य नः गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः स्वीयं वाक्यमृतं कर्तुम् अवतीर्णोऽसि मे गृहे चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धनहम् तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव जानि जानि च रोचन्ते स्वजनानाम रूपिणः त्वां सूरिभिस्तत्त्वभुत्सयाधा सदाभिवादार्हणपादपीठम् ऐश्वर्यवैराग्यजसो वबोध विरज श्रियापूर्तमहं प्रपद्ये परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् आत्मानुभूत्यानुगत प्रपञ्चं स्वच्छन्द शक्तिं कपिलं प्रपद्ये आस्माभिपृच्छेद् पतिम् प्रजानाम् तयावत्तीर्णाणौ ताप्त कामः परिव्रजत् पदवीमास्थितोऽहम् चरिष्ये त्वाम् हृदि जञ्जन् विशोकः श्रीभगवान् उवाच मया प्रोक्तम् हि लोकस्य प्रमाणम् सत्यलौकिके अथा जनि मया तुभ्यम् जदवोचमृतम् मुने एतन्मे जन्मलोकेऽस्मिन् मुमुक्षूणाम् दुराशयात् प्रसङ्ख्यानाय तत्त्वानाम् सम्मतायात्मदर्शने एषा आत्मपथो अव्यक्तो नष्टः कालेन भूयसा तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम् गच्छ कामम मया पृष्ठो मई संन्यस्त कर्मणा जित्वा सुदुर्जय अमृतम अमृतत्वाय माम भज मामात्मानम स्वयं ज्योति सर्वभूत गुहाशयम आत्मन्येवात्मना वीक्ष विश्वको अभयमृच्छसि मात्र आध्यात्मिकीं विद्यां समनिं सर्वकर्मणां वितरिष्ये जया चासो भयं चाति तरिष्यति। मैत्रेय उवाच एवं समुदितस्ते न कपिले न प्रजापतिः दक्षिणीकृत तं प्रीतो वनमेव जगामः व्रतं स आश्रितो मौनम् आत्मैकशरणो मुनिः निःसङ्गो व्यचरक्षोणीम् अनग्निरानिकेतनः मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम् गुणावभासे विगुणा एक भक्त्यानुभाविते निरहं कृतिर्निर्ममश्च निर्द्वन्द्व समधृक् स्वधृक् प्रत्यक् प्रशांत धीर्धीर प्रशांतोर्मीरिवोदधि। वासुदेवे भगवती सर्वज्ञे प्रत्यगात्मनि परेण भक्तिभावेन लब्धात्मा मुक्तबन्धना आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि इच्छाद्वेषविहीनेन सर्वत्र समचेतसा भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः। इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितां तृतीयस्कन्धे कापिले चतुर्विंशोऽध्यायः। हरे कृष्ण 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 हरे 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 राम 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 हरे।